ಸಿದ್ಧಾಂತಕೌಮುದೀಯಂದ್ರಕರಣೆ ಪ್ರಾತಿಪದಿಕಾರ್ಥಲಿಂಗಮಾತ್ರಾಧಿಕ್ಯ ಅರ್ಥಾತ್ ಲಿಂಗಮಾತ್ರಾಧಿಕ್ಯ ಪರಿಮಾಣಮಾತ್ರಾಧಿಕ್ಯ ವಚನಮಾತ್ರೇ ಚ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಭವತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಚತ್ವಾರ ಪದಾರ್ಥಾಃ ಸಂತಿ ತತ್ರ ಪ್ರಾತಿಪದಿಕಾರ್ಥಃ ಲಿಂಗಾಧಿಕ್ಯಂ ಪರಿಮಾಣಾಧಿಕ್ಯಂ ತಥಾ ವಚನಂ ವಚನಮಾತ್ರಂ ಇತಿ. ಸರ್ವೇಷಾಮಪಿ ಕೋರ್ಥಃ ಇತಿ ದ್ರಷ್ಟವ್ಯಃ. ಪ್ರಾತಿಪದಿಕಾರ್ಥಃ ನಿಯತೋಪಸ್ಥಿತಃ ಪ್ರಾತಿಪದಿಕಾರ್ಥಃ ಯಸ್ಮಿನ್ ಪ್ರಾತಿಪದಿಕೆ ಉಚ್ಚಾರ್ಯತೆ ಯಸ್ಯ ಅರ್ಥಸ್ಯ ನಿಯಮೇನ ಉಪಸ್ಥಿತಿಃ ಭವತಿ ಸಹ ಪ್ರಾತಿಪದಿಕಾರ್ಥಃ ಇತಿ ಉಚ್ಯತೆ. ದಟ್ ವಿಚ್ ಇಸ್ ಆಲ್ವೇಸ್ ಅಸೋಸಿಯೇಟೆಡ್ ಆನ್ ದಟ್ ಮೀನಿಂಗ್ ವಿಚ್ ಆಲ್ವೇಸ್ ಮ್ಯಾನಿಫೆಸ್ಟ್ ಇಟ್ಸೆಲ್ಫ್ ವೆನ್ ವಿ ಟೇಕ್ ಆರ್ ಟೆಲ್ ಅ ಪ್ರಾತಿಪದಿಕ. ದಟ್ ಇಸ್ ಕಾಲ್ಡ್ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ದ ಬೇಸಿಕ್ ಮೀನಿಂಗ್ ಆಫ್ ದ ವರ್ಡ್. ತತ್ರಕಿಂ ಉದಾಹರಣಂ ಇತಿ ಚಿಂತಯಾಮಶ್ಚೇತ್ ಅಲಿಂಗಾಃ ನಿಯತಲಿಂಗಾಶ್ಚ ಪ್ರಾತಿಪದಿಕಾರ್ಥಮಾತ್ರೇ ಇತ್ಯಸ್ಯ ಉದಾಹರಣಂ ಇತಿ ದೀಕ್ಷಿತೈಃ ಉಚ್ಯತೆ. ಅಲಿಂಗಾಃ ಏಷಾಂ ಶಬ್ದಾನಾಂ ತಸ್ಯಾಪಿ ಲಿಂಗಸ್ಯ ಭಾನಂ ನ ಭವತಿ ಅರ್ಥಾತ್ ಅವ್ಯಯಾನಿ ಅವ್ಯಯೇಷು ರೂಪಸಾದೃಶ್ಯತ್ವಾತ್ ತಥೈವ ಅರ್ಥಸಾದೃಶ್ಯತ್ವಾತ್ ಪ್ರತಿರಪಿ ಲಿಂಗಸ್ಯ ಭಾನಂ ನ ಭವತಿ ಪದತ್ವಸಾಧನಾರ್ಥಂ ವಿಭಕ್ತಿ ಕ್ರಿಯತೆ ಸಹ ಲುಕ್ಯತೆ ಪ್ರಭೇಭ್ಯ ಸದಾ ವಿಭಕ್ತಿ ಲುಕ್ಯತೆ ಲೋಪೋ ಭವತಿ ಅವ್ಯಯಲಾಪ್ತುಪಃ ಇತಿ ಸೂತ್ರೇಣ. ಏವಂ ಅಲಿಂಗಾನಾಂ ಶಬ್ದಾನಾಂ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಮಾತ್ರೇ ಪ್ರಥಮಾ ವಿಭಕ್ತಿ ಭವತಿ. ಏವಂ ನಿಯತಲಿಂಗಾಃ ಏಷಾಂ ಶಬ್ದಾನಾಂ ಏಕಮೇವ ಲಿಂಗಂ ಭವತಿ ನಿಯಮೇನ ಏತಸ್ಮಿನ್ ಲಿಂಗೇ ಪ್ರಯೋಗಃ. ಶ್ರೀಃ ನಪುಂಸಕಲಿಂಗೇ ಪ್ರಯೋಗ ತತ್ಕಲ್ಲಿಂಗೇ ನಿಯತಃ ಯೇ ಶಬ್ದಾಃ ಸಂತಿ ತೇಷಾಂ ಶಬ್ದಾನಾಮಪಿ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಮಾತ್ರೇ ಪ್ರಥಮಾ ಭವತಿ. ಯತೋ ಹಿ ತತ್ರ ತಸ್ಯ ಶಬ್ದಸ್ಯ ಯಃ ಅರ್ಥಃ ಸಹ ತಥೈವ ಲಿಂಗಮಪಿ ಪ್ರಾತಿಪದಿಕಾರ್ಥೇ ಏವ ಅಂತರ್ಭವತಿ ನಿಯತೋಪಸ್ಥಿತಿಕತ್ವಾತ್. As we have defined Pratiparika Artha as that which is always associated with the Pratiparika. In case of Niyata Linga, those words which are used in a single Linga, the Linga is also always associated or compulsorily associated with the Pratiparika. So it also gets included in Pratiparika Artha. So in case of such words, ನಿಯತಲಿಂಗಾನಾಂ ವಿಷಯೇಷು ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಮಾತ್ರೇ ಪ್ರಥಮ ವಿಭಕ್ತಿಃ ಭವತಿ. ಯತ್ರ ತು ಲಿಂಗಂ ನಿಯತಂ ನ ಭವತಿ ಅನಿಯತಲಿಂಗಾಃ ಭವಂತಿ ಯಥಾ ಲಿಂಗತ್ರಯೇಪಿ ಪ್ರಯೋಗಃ ಭವತಿ ಅಥವಾ ಲಿಂಗದ್ವಯೇ ಪ್ರಯೋಗಃ ಭವತಿ. ತಾದೃಶಾಂ ಶಬ್ದಾನಾಂ ವಿಷಯೇ ಕಿಂ ಇತಿ ಚೇತ್ ತತ್ರ ಲಿಂಗಾಧಿಕ್ಯೇ ಪ್ರಥಮ ಇತಿ ಉಚ್ಯತೆ. ಅರ್ಥಾತ್ ಪ್ರಾತಿಪದಿಕಾರ್ಥೇನ ಸಹ ಲಿಂಗಮಪಿ ವಿಭಕ್ತ್ಯಾ ಭಾಸತೆ ಇತ್ಯರ್ಥಃ. ಯಥಾ ತಕಃ ಕಟಿ ತಕಂ ಇತ್ಯುದಾಹರಣಂ ದತ್ತಂ ತತ ಶಬ್ದಃ ತ್ರಿಷ್ವಪಿ ಲಿಂಗೇಷು ಪ್ರಯುಜ್ಯತೆ. ತತ್ರ ಪ್ರಾತಿಪದಿಕಸ್ಯ ಅರ್ಥಃ ಕಶ್ಚಿದ್ ಅಸ್ತಿ ತತ ಶಬ್ದಸ್ಯ ಬ್ಯಾಂಕ್ ಆಫ್ ದ ರಿವರ್ ಇತ್ಯಸ್ಯ ಯೋರ್ಥಃ ಸಹ ಪ್ರಾತಿಪದಿಕಾರ್ಥಃ. तेन सह तत्तद्विभक्त्या प्रथमा विभक्त्या पुल्लिङ्गत्वं स्त्रीलिङ्गत्वं नपुंसकलिङ्गत्वम् इति उच्यते. अतः लिङ्गाधिक्ये प्रथमा प्रातिपदिकार्थः तेन सह लिङ्गम् विभक्त्यर्थः प्रथमा विभक्तेः अर्थः इति उच्यते. येषां शब्दानां नियतं लिङ्गं नास्ति तेषां शब्दानां लिङ्गाधिक्ये प्रथमा विभक्तिः भवति इति ज्ञातम्. इदानीम् अग्रे सरामः प्रातिपदिकार्थ लिङ्ग परिमाण परिमाणमात्राधिक्ये प्रथमा इति उच्यते. परिमाणमात्रे द्रोणो वीतिः इति उदाहरणं दीयते. द्रोणः परिमाणविशेषः. द्रोण इस् अ कैण्ड् आफ् मेजर्. So remember, I mean, just like we use, say, grams, kilograms, ounce, pound, there are different ways of measurement of weight now. So in earlier days, there were different kinds of weight. Drona is one of the specific names of those weights. Kim dronaha nama kaha ityasya asti. Udaharanartham, jala surya marisistham kratareno ritismatam. Jala surya marisistham. This was the jalat from some net. If the sunlight passes, you can see dust. I mean, on the path of the sunlight, you see small particles of dust. So that is called prakarenu. Jala surya marichistham. That which is visible in the sunlight, which is passing through a fine net. Okay, that is called prakarenu. And that is the minimal point. So prasarenohu ashta pramanam. So 8 times that prasareno is called diksha. Dikshayaha 3 times. Rajasarshapaha. Evam bahuni namani santi with different measures. Okay, and you can find drona there. This is one of the types of measurement. Drona. Okay, even in the previous generation, there used to be different measures of vessels. Right? So, if you are used to Kannada, they say Pavu, Seru, etc. All those different kinds of measurements, and Drona is one of those kinds. Okay. In Drona Vrihihi, etc., Drona Shabda se Prathama Bhakte hai, Kaur Khaha, iti Prashna. Drona Vrihihi, etc., Kaur Khaha, Drona Rupam, Yat Parimanam, Tat Parichinno Vrihihi. So the meaning we get from Drona Vrihihi is Drona Rupam Yat Parimanam. Drona is a measure. Okay. So Tat Parichinnaha Vrihihi. Vrihihi is grain. Grain which is measured by a measure called Drona. Okay. That is the meaning which is conveyed by Dronaha Vrihihi. Drona-rupam yat parimanam tat parichinnaha vrihihi. If you notice that there is a difference between just saying dronaha. Dronaha means the measurement. Say 1 kg, chetakotaha, kilogram is a measurement. Hintu, 1 kg of rice, asa 1 kg of paddy, iti uchyate chetakotaha, it refers to paddy which is measured by a measure of 1 kg. There is a difference. Just saying 1 kilogram is the measure. But when you are using that as an adjective to something else, yada satyapi visheshanam bhavati, when you are saying 1 kilogram rice, you are referring actually to rice which has been measured by a measure of 1 kilogram. So dronavrihihi is just like saying 1 kg rice. Dronarupam is parimanam. Dronaha iti parimanam. Parimanam is something which measures. द्रोणरूपं यत् परिमाणं तत् परिच्छिन्नः व्रीहिः इत्यर्थः भवति. ओके, अत्र द्रोणरूपः परिमाणविशेषः प्रातिपदिकार्थः. ऐ थिङ्क् देर् आर् अ कपल् आफ् क्वेश्चन्स् विच् ऐ डिडन्ट् नोटिस्. जस्ट् अ सेकेण्ड् प्लीज़. Okay, sorry for the break. I did not notice the question. Lingadhikya vishaye kashchan prashnah asti. Avyayanam pratiparikarthaha sarvada bhavati kim? Avyayanam sarvada pratiparikarthe eva bhaktihi. सर्वदा प्रथमा भक्तिरेव इति सिद्धांत पक्षः. देयर इज अनदर schools of thought. According to one school, avyayas always get prathama vibhakti. According to another school, they get ekavachana of different vibhakti. But for now, from Likhita's point of view or from Siddhanta, they always get prathama vibhakti. Prathama vibhakti reva bhavati iti Siddhanta. Sirat siraya iti ye shruyante kanyapi avyayani panchama vibhakti hinasti. They are avyayas which sound like the panchama vibhakti anta. Sirat iti eva avyayam. It is not Sira Shabda and Panchami Vibhakti. Rama Shabda Panchami Vibhakto krute krutayam Ramat iti bhavati. Tatha Sira iti avyayat Panchami Vibhakto krutayam Sirat iti na bhavati. Siram iti eva bhavati. Sirat iti dhinnam avyayam Panchamyathe avyayam. So we call it as Vibhakti Pratirupakani avyayani. They are avyayas which look like vibhakti or which imitate vibhakti, but the avyaya itself is sirat. Sirat ityeva avyayam. Tasmat punaha prathama vibhakti kriyate lupyate ataha sirat ityeva rupam bhavati. Kintu tadapi avyayam eva sirat iti panchami vibhaktyantam nasti. Evam siraya ityasya chet siraya ityeva avyayam. Sira Shabdase Chaturthi Vibhakto Siraya iti na bhavati. Sira ityekam avyayamasti tasya sarvada siram ityeva rupam. Sirat ityekam avyayamasti tasya sarvada sirat ityeva rupam. Tatra panchamyarthaha avyaya eva nidarthaha. It is not panchami vibhakti which is added to avyaya. The avyaya itself is sirat. Okay, evam siraya evam bahuni santi. Okay. कृष्ण महोदय से प्रश्न तत्र किं लिंगाधिक्यम् इति न ज्ञातम्. प्रश्नस्य आशय कः इति न ज्ञातः. ततः इत्यत्र किं लिंगम् अधिकम्? पुल्लिङ्गस्य आधिक्यम् तत केवलम् तत इति प्रातिपदिकेन यः अर्थः भासते तेन सह प्रथमाविभक्त्या पुल्लिङ्गत्वमपि भासते. जस्ट् द वर्ड् तत डस् नाट् कम् असोसियेटेड् वित् एनी लिङ्ग. तत इति अक्षरेण किमपि लिङ्गम् न भासते. दिस् इस् डिफरेण्ट्. लैक् से श्री इति उच्यते चेत् केवलम् प्रातिपदिकेन एव स्त्रीलिङ्गत्वमपि भासते. बिकास् इट् इस् ओन्ली जस्ट् स्त्रीलिङ्ग. एषाम् लिङ्गम् नियतम् नास्ति तत्र प्रातिपदिकेन किमपि लिङ्गम् न भासते. जस्ट् वेन् यु से तत यु केनाट् डिसैड् विच् लिङ्ग इट् इस्. यदा विभक्तिः क्रियते तदैव लिङ्गस्य भानम्. अतः प्रातिपदिकार्थः तेन सह पुल्लिङ्गत्वम् अधिकतया भासते विभक्त्या. अतः लिङ्गाधिक्ये प्रथमा विभक्तिः इति उच्यते. अन्यः कोऽपि प्रश्नः अस्ति वा लिङ्गाधिक्य विषये? परिमाणः द्रोणो व्रीहिः इति उदाहरणं दीयते. कोऽर्थः द्रोणरूपं यत् परिमाणं तत् परिच्छिन्नः व्रीहिः इत्यर्थः भासेत. अत्र प्रातिपदिकस्य अर्थः कः? द्रोणशब्दात् कथम् प्रथमा विभक्तिः इति विचार्यते. प्रातिपदिकार्थः कः? द्रोणरूपः परिमाणविशेषः. स्पेसिफिक् कैण्ड् आफ् मेजर्मेण्ट् काल्ड् द्रोण इस् द मीनिङ्ग् आफ् प्रातिपदिक. सो दट् इस् प्रातिपदिकार्थ. द प्रथमा विभक्ति इन् एडिशन् टु प्रातिपदिकार्थ इट् आल्सो टेल्स् परिमाण सामान्यम्. देर् इस् अ डिफरेन्स् बिट्वीन् परिमाण. When we are saying measurement, there is something which is called a general measurement, parimana samanyam, which is a quality which exists in all parimanas. Sarveshu parimaneshu yadasti tat parimana samanyam. It's a general quality, it exists in all parimanas. Tataha pratyekam parimanasya parimana visheshaha. So if you studied a bit of sarka, you will know there is something called samanya and something called vishesha. Parimana samanyam यत् सर्वेषु परिमाणेषु भवति एवं परिमाण विशेषः तत्र प्रातिपदिकार्थः परिमाण विशेषः दट स्पेसिफिक पैरामीटर कॉल्ड द्रोण इज द मीनिंग ऑफ प्रातिपदिका विभक्तेः तु परिमाणाधिक्ये प्रथमा इत्यस्य कोऽर्थः प्रातिपदिकार्थः भासते तेन सह परिमाण सामान्यम् so it also gives a general sense of parimana. उदाहरणम् अत्र पश्यामः अत्र प्रातिपदिकमस्ति द्रोण इति प्रातिपदिकम् ततः प्रत्ययः प्रथमा विभक्ति प्रत्ययः ततः व्रीहिः इत्यस्ति द्रोणः व्रीहिः इत्यत्र द्रोणः इति विशेषणम् व्रीहिः इति विशेष्यम् द्रोण इज एन एडजेक्टिव टू व्रीहि व्रीहिः इज पैडी द ग्रेन्स ऑफ पैडी द्रोण इज समथिंग विच इज मेजरिंग और क्वालिफाइंग दट ग्रेन दोज ग्रेन्स ऑफ पैडी इदानीं प्रातिपदिकस्य परिमाण विशेषः अर्थः परिमाण विशेषः द्रोणरूपः परिमाण विशेषः प्रातिपदिकार्थः परिमाण सामान्यम् प्रत्ययार्थः सो अ जनरल सेन्स ऑफ परिमाण एन इंडिकेशन ऑफ इट इज अ परिमाण इज बीइंग गिवन बाय द विभक्ति सो द्रोणरूपं यत् परिमाणं तत् परिच्छिन्नः प्रीतिः सो वी आर लिंकिंग ईच सर्वदा वाक्ये सर्वेषां पदानां परस्परम् अन्वयः भवति कथम् अन्वयः इति द्रष्टव्यः सो परिमाणविशेषस्य परिमाणसामान्यस्य च अभेदान्वयः इति उच्यते तदेव दीक्षितैः अग्रिमपङ्क्तौ लिख्यते प्रत्ययार्थे परिमाणे प्रत्ययस्य नाम प्रथमाविभक्तेः कोऽर्थः परिमाणसामान्यम् अर्थः तस्मिन् परिमाणे प्रकृत्यर्थः अभेदेन संसर्गेण विशेषणम् प्रकृत्यर्थस्य नाम परिमाणविशेषस्य अभेदान्वयः अभेदम् मीन्स् देर् इस् नो डिफरेन्स् even though we are differing it as saying parimana vishesha and parimana samanya we are saying drona is a special kind of parimana and parimana in general is given by the pratyaya still they are the same right yaha drona rupaha parimana visheshaha tathaiva parimana samanyam tayoho bhedaha nasti right so ataha abhedena anvayaha tayoho प्रत्ययार्थस्तु परिच्छेद्य परिच्छेदक भावेन व्रीहौ विशेषणम् नौ वाट् इस् द रिलेशन्शिप् बिट्वीन् दिस् परिमाण सामान्य एण्ड् व्रीहि मेजर्मेण्ट् एण्ड् व्रीहि वाट् इस् द रिलेशन् बिट्वीन् मेजर्मेण्ट् एण्ड् व्रीहि सो परिच्छेद्य परिच्छेद्यक भावः परिच्छेद्य इस् दट् वीन् मेजर्ड् विच् इस् व्रीहि परिच्छेदक इस् दट् विच् मेजर्स् अतः अत्र परिमाणं परिच्छेदकं व्रीहिः परिच्छेद्यम् सो वि से द रिलेशन्शिप् आर् टेक्निकलि दिस् इस् अगेन् लाङ्ग्वेज् तर्क परिच्छेद्य परिच्छेदकभावेन अन्वयः इति उच्यते सो वाट् डिड् वाट् आर् वि फैनलि गेटिङ्ग् इट् कः विशेषः किमर्थं परिमाणाधिक्ये प्रथमा इति उच्यते इति चेत् शब्दबोधे विशेषः सो इट् मेक्स् अ डिफरेन्स् सो हौ वि perceive the meaning of the sentence. Shabda bodha means the process of getting the meaning out of a sentence is called shabda bodha. Drona vrihihi ityasya korthaha iti uktam. Drona rupam yat parimanam tat parichinnaha vrihihi. The sentence gives the meaning that drona is a measurement. Drona is the name of the particular kind of measurement. It says that drona is a particular kind of measurement. And there is some paddy which is being measured by that grain, that particular measurement. Ityarthaha tena vakyena bhasate. Parimanadhike prathama ityukte sati dronakshya parimana visheshatmakam yat samanya parimanam. Drona is a name which is given to a type of general measurement. Tat parichinnaha vrihihi. So, paddy measured by that parimana. Iti bodhaha bhavati. That is what you are getting out of it. Eta dabhave. If there is no parimana dhikya, why is, are we making a distinction between drona, parimana vishesha and parimana samanya dhikya? Parimana samanyam yadi vivakkehe arthana syat, tada drona cha parimana vishesha parichinnaha vrihihi. Iti bodhasya. So, I mean, for now, I am not sure if you will understand the difference between Shabda Bodha. Okay. अत्र द्रोणाख्य परिमाण विशेषात्मकम् यत् सामान्य परिमाणम् तत् परिच्छिन्नः व्रीहिः. द्रोण इज अ काइंड ऑफ मेजरमेंट एंड इट इज व्रीहि बीइंग मेजर्ड बाय द्रोण. दैट इज द सेंस वी आर एक्चुअली गेटिंग इन अर्जुनस्य प्रातिपदिकाधिक्ये प्रथमा. I mean, परिमाणाधिक्ये प्रथमा. So, if प्रथमाविभक्ति did not convey the sense of that सामान्य परिमाण, the intent of the sentence would have been व्रीहि which is measured by द्रोण. Okay? So, we would not know what is द्रोण. द्रोणं नाम किं? तत् परिमाण सामान्यम् इति बोधः न जायेत इत्यर्थः. केवलं द्रोणाख्य परिमाण विशेष परिच्छिन्नः व्रीहिः इति बोधस्य. Okay? So, अत एव परिमाणाधिक्ये प्रथमा इति उच्यते. So, finally, परिमाणाधिक्ये प्रथमा इति कुत्र भवति? यानि परिमाणवाचकानि पदानि, परिमाण विशेषवाचकानि पदानि. So, परिमाणाधिक्ये प्रथमा अप्लाइज टू ऑल टर्म्स ऑफ मेजरमेंट विच आर यूज्ड इन संस्कृत. देयर आर लॉट्स ऑफ टर्म्स बिकॉज आई मीन टुडे वी हैव अ स्टैंडर्डाइज्ड वन. से देयर इज किलोग्राम, इट विल बी 10 किलोग्राम, 1000 किलोग्राम एटसेट्रा. बट पूर्वतन काले किम् आसीत्? सर्वेषां भिन्नानि भिन्नानि नामानि आसन्. एक as we saw already there are a list of some 15 or 20 different types of परिमाण just for weight. न केवलं भारस्य किन्तु दैर्घ्यस्य. सर्वेषामपि परिमाणानां भिन्नानि भिन्नानि पदानि आसन्. तानि सर्वाणि परिमाणवाचकानि पदानि इत्युच्यन्ते. सर्वेषां परिमाणवाचकानां पदानां परिमाणाधिक्ये प्रथमाविभक्तिः भवति. So for all words which indicate some kind of specific measurement. So we have prathamavibhakti in the sense of parimanadhikya, where the vibhakti indicates pratiparikartha, that is, it indicates a specific type of measurement, and it also indicates that it is a kind of measurement. Parimana samanyam api vibhaktya bodhyate. Kimar शब्दबोधः नाम कः? तदेव वाक्यात् कथम् अर्थः भवति. द प्रोसेस् आफ् गेटिङ्ग् द मीनिङ्ग् औट् आफ् अ सेण्टेन्स् इस् काल्ड् शब्दबोध. वाट् इस् द एक्साक्ट् मीनिङ्ग् वि गेट् औट् आफ् अ सेण्टेन्स्? चैत्रः पचति इत्युक्ते कीदृशः बोधः जायते? शब्दबोधः इस् वन् आफ् द अल्टिमेट् आब्जेक्टिव् आफ् डिफैनिङ्ग् इन् द शास्त्र. व्याकरणशास्त्रे, तर्कशास्त्रे, सर्वेषु शास्त्रेषु शब्दबोधस्य एव प्राधान्यम्. आल् शास्त्रास् ट्रै टु डिफैन् हौ डु वि गेट् द फैनल् मीनिङ्ग् आफ् द सेण्टेन्स् एण्ड् वाट् इस् एक्चुली द मीनिङ्ग् दट् वि गेट् औट् आफ् एनी सेण्टेन्स्. इट्स् अ ह्यूज् टापिक् इन् द शास्त्र एण्ड् इट् इस् वन् आफ् द अड्वान्स् टापिक्स्. कथम् अर्थः भवति इत्येव. इट् जस्ट् मीन्स् हौ डु वि गेट् the meaning out of a sentence and what is the exact meaning that we are getting out of the sentence tries to define. And that is one of the reasons why they say Sanskrit is very useful for computers. It is because the Shabda Bodha process has been highly argued and documented in Sanskrit Shastra. The process of how we get the meaning out of a sentence and what is the meaning we are getting out of a sentence is it's been very highly argued by all shastras, and they have defined it very very precisely. When we are developing something for computer, say trying for things like machine translation, first we need to understand how we interpret things, and then we have to teach the computer to interpret things. Yada tadeva translation athava natural language processing is isyate tatra kim bhavati. यन्त्रम् उपयुज्य अनुवादं कर्तुं प्रयत्नः क्रियते. तत्र आदौ अस्माभिः ज्ञातव्यं कथम् अस्माभिः अर्थः ज्ञायते. वि हेव् टु फस्ट् डिफैन् हौ आर् वि इण्टर्प्रिटिङ्ग् मीनिङ्ग् आफ् द सेण्टेन्स्. वन्स् वि वन्स् दट् इस् डिफैन्ड् देन् ओन्लि वि केन् ट्रै टु टीच् अ मशीन् टु फालो द सेम् प्रोसेस् एण्ड् इण्टर्प्रिट्. संस्कृतशास्त्रेषु तथाविधं चिन्तनम् अत्यन्तम् आधिक्येन प्रचलितमस्ति. अत एव संस्कृतस्य औपयोगित्वं गणकयन्त्रेषु. ओके, सो दट् वास् अ डैवर्शन्. कमिङ्ग् बेक्, यदि क्षीरम उदाहरणम चेत द्रोणम क्षीरम वा नयम प्रश्न साधुर्वा साधुरेव परिमाणवाचकान्यपि पदानि किन्तु परिमाणवाचकानां पदानां इट इज नॉट लाइक ए विशेषण दैट इज फॉर क्षीरम क्षीरम आल्सो इट विल बी द्रोणः क्षीरम द्रोणः इति पुल्लिंगे एव सो इट इज अ लिंग फॉर एग्जांपल देयर आर डिफरेंट थिंग्स तत्रैव खारी इत्यस्ति खारी व्रीहिः सो दैट इट इज नॉट लाइक ए विशेषण विशेष where you have different lingas. The Shabda itself has a specific linga of its own. Ataha sarvada dronaha ityeva bhavati. Dronaha kshiram iti vaktum shakshyate. So kshira which is measured by drona iti shakshyate eva. Dhanyalokasya sivaka sambandha iti shabda bodhasya sarvaihi shastra istaha sambandha asti. तावदेव शब्दबोधः सर्वेषु शास्त्रेषु बहुधा चर्चितः अतः सर्वत्र भवति सर्वत्र विचारेषु भेदः अपि अस्ति सो वेन् ऐ से वैयाकरण सीक्ष शब्दबोध इट्स यूज आर डिफरेंट फ्रॉम दट ऑफ अ तर्क तार्किक और दट ऑफ एन अलंकारिक और दट ऑफ अ मीमांसक यदि केवलं परिमाण विशेषात्मकः व्रीहिः इति वक्तुम् इष्यते तदा प्रातिपदिकार्थे प्रथम इति वक्तुं शक्येत किन्तु तथा बोधः न भवति इति सिद्धान्तः केवलं द्रोणरूपपरिमाण विशेषपरिमाणात्मकः अथवा तत्परिच्छिन्नः व्रीहिः इति बोधः न भवति द्रोणो व्रीहिः इति वाक्यं प्रयोगस्य द्रोणो व्रीहिः इत्येव किल वाक्यस्य द्रोणो व्रीहिः What they are analyzing is what is the bodha we are getting out of it. Tena dronakshyam yat vishesha parimanam, dronarupam yat samanya parimanam. Dronaha vishesha parimanam, dronarupam yat samanya parimanam, tat parichinnaha vrihihi ityeva bodhaha bhavati tena vakyena, ataha tatra parimanadhikye prathama eva iti siddhantaha. So, I mean, theoretically your question is correct. Athaiya vastu mishyate chet. किन्तु द्रोणो व्रीहिः इत्यनेन तथा न भवति अन्यः प्रश्नः स्थूल इस् नाट् मेजर्मेण्ट् स्थूल इस् एन् अब्जेक्टिव् देर् इस् अ डिफरेन्स् बिट्वीन् वर्ड्स् आफ् मेजर्मेण्ट् द्रोण इस् नाट् सेयिङ्ग् देर् इस् टु मच् आफ् रैस् आर् देर् इस् अ लाट् आफ् पाडी द्रोण इस् अ पर्टिक्युलर् मेजर्मेण्ट् स्थूलः पुरुषः इस् वेरि ऑब्जेक्टिव् ऐ मीन् For Kareena Kapoor, say, anybody, even a normal woman, might be, she might consider it as sthula. So, sthula is a very objective thing, it's just an adjective. Being fat or thin is not a particular measurement. Sthula is not parimana. Sthula iti visheshanam. Adha sthula purushaha sthula mahila iti bhavati. When you're saying, when you're actually measuring the weight of a person, there would be some term that would be parimana mataka. स्थूल इति परिमाणवाचकं नास्ति केवलं विशेषणमेव परिमाणाधिक्ये सर्वदा प्रथमैव केवलस्य परिमाणाधिक्यमात्रे अत एव मातृशब्दः अस्ति सो यु केन् से द्रोणं व्रीहिम् आनय तत्रापि द्वितीया सत्यः भवति तत्र कर्मत्वम् अस्ति केवलं परिमाणाधिक्यम् परिमाणाधिक्यमात्रे प्रथम अन्यत् किमपि न भासते चेत् प्रथमविभक्तिः यदि कर्मत्वस्य भानमस्ति तर्हि द्वितीयविभक्तिः भवति एवं करणत्वस्य भानमस्ति चेत् तृतीयविभक्तिः भवति केवलं प्रातिपदिकार्थः तेन सह परिमाणम् केवलम् एतावत् विभक्त्या विभक्तेरर्थश्चेत् सा प्रथमविभक्तिरेव भवति So, if the intention is to convey only this much, then it will be prathamavibhakti. In drona janam namadatam. What do you mean?
Jalam.
Drona jalam. Drona jalam bhavati. Drona yana. Drona ha. अत्रापि पुनः प्रश्नः लिङ्गे यथा कृतम् ప్రాతిపదికార్థ మాత్రే ప్రథమ ఇచ్చే లింగమాత్రే ప్రథమ ఇది వా పరిమాణమాత్రే ప్రథమ ఇది వా నోచ్యతే. లింగమాత్రాధిక్యే పరిమాణమాత్రాధిక్యే లెట్స్ పరిమాణ ఇస్ ఇన్ అడిషన్ టు ప్రాతిపదికార్థ ఏవం లింగం ప్రాతిపదికార్థేన సహ భాసతే. కిమర్థమితి చేత కేవలస్య లింగస్య భానం క్వాపి నాస్తి. ప్రాతిపదికార్థం వినా కేవలస్య లింగస్య భానం నాస్తి. తథైవ ప్రాతిపదికార్థం వినా కేవలస్య పరిమాణ సామాన్యస్య భానం నాస్తి. అతః పరిమాణ మాత్రాధిక్యే ప్రథమ. పరిమాణ మాత్రే ప్రథమ ఇది నాస్తి. ప్రాతిపదికార్థస్సు భవతి యత్కించిత్ విశేష పరిమాణం తేన సహ పరిమాణం పరిమాణ సామాన్యం భాసతే. అతః పరిమాణ మాత్రాధిక్యే ప్రథమ. సమాసః యత్ర భవతి తత్ర ద్రోణశబ్దాన్ న భవతి. కేవలం జలశబ్దాదే ద్రోణజల ఇది సమస్త పదాన్ ప్రథమ విభక్తి అస్తి. తత్ర కథం ఇది చేత ప్రాతిపదికార్థ మాత్రే ప్రథమ. మేకింగ్ సమాస ద ప్రథమ విభక్తి ఇస్ ఆన్ ద సమాస. సో యు హావ్ టు టేక్ వాట్ ఇస్ ద ప్రాతిపదికార్థ ఆఫ్ ద సమాస. తత్ర యద్యదుక్తం ద్రోణాచ్య పరిమాణ విశేష పరిచ్ఛిన్నం జలం తత్సర్వం ప్రాతిపదికార్థే ఏవ అంతర్భవతి. అతః ప్రాతిపదికార్థ మాత్రే ప్రథమ ఇత్యేవ భవతి యది సమస్తం పదం. అన్యః కోపి ప్రశ్నః? ప్రాతిపదికార్థ లింగ పరిమాణ వచన మాత్రే ప్రథమ. అంతిమ భాగ సూత్రస్య వచన మాత్రే ప్రథమ ఇది ఉచ్యతే. వచనం సంఖ్యా ఇది ఉక్తం దీక్షితైః. అర్థాత్ సంఖ్యా మాత్రస్య భావే ఏతం ద్రోణ పర్యాయ పదాని ఇన్ రిఫర్ టు ద ప్రీవియస్ స్లైడ్ వేర్ దేర్ ఆర్ డిఫరెంట్ మెజర్స్ ఆఫ్ కైండ్స్ ఆఫ్ మెజర్మెంట్ గివెన్. ఓకే, దేర్ ఇస్ యాక్చువల్లీ ఫర్ ద్రోణ దర్ ఇస్ వన్ పర్యాయ పద ఐ థింక్ ఇస్ కాల్ కుంభ సంథింగ్. బట్ జనరలీ పరిమాణాఖ్యాన పదానాం పర్యాయ పదం ఇది న భవతి. సదేవ పరిమాణ విశేష ఇట్ ఇస్ జస్ట్ వన్ మెజర్. పర్యాయ పదం కేజీ ఇచ్చేస్తే చేత తస్య పర్యాయం కహ ఇది విచారయితుం న శక్యతే. సో అతః పర్యాయ పదానాం చింతా న భవతి అత్ర. కోపి కోపి పరిమాణ విశేష ఇత్యేవ. క్వచిద్ భవతి కింతు ప్రాయేణ న భవతి. వచనం సంఖ్యా సంఖ్యామాత్రస్య భానే ప్రథమా విభక్తిః భవతి. యత్ర సంఖ్యామాత్రకం పదమస్తి అర్థాత్ ఏకం ద్వే బహవః ఇత్యేవ ఉదాహరణం వచనమాత్రస్య. యత్ర కేవలస్య సంఖ్యాయాః భానం అస్తి తత్ర వచనమాత్రే ప్రథమ ఇది ఉచ్యతే. ఏకం ఇది ఉచ్యతే. పూర్వం సర్వం కుత్ర కథం ఆసీత్ ఇదానీం కృష్ణ ఇత్యుక్తే ప్రాతిపదికార్థ మాత్రే ప్రథమ ఇది ఉచ్యతే. ప్రాతిపదికార్థేన సహ విభక్త్యా విభక్తేః భిన్నైః ప్రత్యయైః వచనమపి భాసతే ఇది ఉక్తం. ఏకవచనం ద్వివచనం బహువచనం ఇది తు విభక్తి ప్రత్యయేన జ్ఞాయతే. యత్ర పదమేవ సంఖ్యామాచకం అస్తి. సంఖ్యావాచక తదా కిం భవతి ఏకత్వం ద్విత్వం బహుత్వం ఇది యదస్తి తత్తు నియత రూపేణ ప్రాతిపదికేనైవ భాసతే. ద ద్రోణాఘతౌ ఆఘతట్ ద్రోణం ద్వంద్వసమాసే పరవల్లింగం ద్వంద్వతత్పురుషయోః ఇత్యస్తి నియమః. యత్ పరం పదం భవతి తస్య లింగం భవతి. ఆఘతద్రోణం ఇత్యత్ర వస్తుతః పరిమాణాధిక్యం నాస్తి. యతో హి ఆఘతం ద్రోణః ఇది పరిమాణయోః సమాసే కృతే కిం లింగం ఇది నియతతయా న భాసతే అతః లింగాధిక్యే ప్రథమ ఇది. You cannot have something which is measured by both those parimanas. In such a case, it is not actually referring to a measurement. It is just the samasa of the word which indicates measurement. Satra lingadhike prasmaga kipavati. Iti satya prasmasya uttaram. Vrone phalani santi ityukte kotpaha iti maya navagatam. प्रश्नस्य कः आशयः इति नावगतः मया. द्रोण्या इति चेत् अपि तदेव द्रोणी इति बकेट् इत्यर्थे द्रोणी इति उपयुज्यते. तत्तु परिमाणवाचकं नास्ति. बकेट् इट् इस् नाट् अ स्पेसिफिक् परिमाण. अतः तस्मिन् अर्थे परिमाणाधिक्ये प्रथमा न भवति. कः परिमाणवाचकमेव नास्ति तत् पदम् इत्यतः तत्र तथा न भवति. द्रोणः इति यदा परिमाणवाचकशब्दः तदैव एतादृशस्य प्रयोगस्य अस्तु अग्रे करामः. आम्रफलानि द्रोणे सन्ति इत्यस्य कः आशयः इति द्रोणे इत्यस्य द्रोणपरिमाणात्मकानि आम्रफलानि इति वक्तव्यं चेत् सत्यं परिमाणवाचकत्वं भवति. किन्तु आम्रफलानां तथा परिमाणः न भवति. सङ्ख्यया भवति गणनम् अथवा द्रोणः इस् इट्स् नाट् अ मेजर्मेण्ट् आफ् वेट् एक्चुलि इट्स् अ मेजर्मेण्ट् आफ् So you can measure things like you could also measure armrest probably, but I think it is more easier to measure those things which cannot be counted. Sadrisham parimana vasakam dronaha. Yehi parimana vasakatvam asti tarki bhavasyeva. Iti nirnayaha. Ajaya gatsamaha vachane prathama iti chate. Inda kathanchit prathama bhaktirva samapaniya eva. प्रश्नाः सन्ति चेत् अवश्यं पृच्छन्तु. चिन्ता नास्ति. डोण्ट् विथोल् युर् क्वश्चन् बिकास् आफ़् टैम् विल् आल्वेस् टेक् आल् क्वश्चन् टु रिमूव् सिन्स् ऐ थिङ्क् यू हेव् एक्सास्टेड् द थिङ्ग्स् वित् परिमाण. सो विल् मूव् टु दटनम्. सर्वत्र किमस्ति इत्युक्ते इदानीं प्रातिपदिकार्थमात्रे प्रथम इत्यपि यदा उच्यते तथापि विभक्तिप्रत्ययेन सङ्ख्या विशेषेण भासते. प्रातिपदिकार्थः तेन सह सङ्ख्या अपि भासते. एकत्वं द्वित्वं बहुत्वं विभक्त्या यद्यपि प्रातिपदिकार्थः एव उच्यते. विभक्ति इस् अ जनरल् टर्म् फार् आल् थ्री. दट् इस् टु औजस् इति प्रथमाविभक्तिः प्रत्ययाः. सर्वेषां मिलित्वा विभक्तिः इति उच्यते. विभक्त्या प्रातिपदिकार्थः. किन्तु तत्र सुप्रत्ययात् एकत्वं भासते. प्रातिपदिकार्थेन सह एकत्वं भासते, द्वित्वं भासते, बहुत्वं भासते इत्यस्य. यदा तु एकं द्वे बहवः इत्येव पदमस्ति तदा किं भवति इत्युक्ते एकत्वद्वित्वबहुत्वानां नियतरूपेण प्रातिपदिकेन एव भवनात्. प्रातिपदिकस्यैव अर्थः एकत्वं द्वित्वं बहुत्वम् इति भवति. तदपि प्रातिपदिकार्थः एव भवति. सो दट् इस् आल्सो प्रातिपदिकार्थ. देर् इस् अब्सल्यूट्लि नथिङ्ग् बीङ्ग् सोल्ड् बै द विभक्ति. इवन् वन्यते प्रातिपदिकार्थमात्रे प्रथम तत्र प्रातिपदिकार्थेन सह सङ्ख्या विभक्त्या भासते. इवन् दो द प्रातिपदिका द विभक्ति इस् इण्डिकेटिङ्ग् प्रातिपदिकार्थ इट् आल्सो इण्डिकेट् सङ्ख्या. देन् प्रातिपदिकार्थ इट्सेल्फ् इस् सङ्ख्या. विभक्तेः किमपि वैशिष्ट्यं नास्ति इत्यतः उक्तार्थत्वात् विभक्तेः अप्राप्तौ वचनम् विभक्तिरेव न प्राप्नोति. If the vibhakti has to convey only what the pratiparikartha is conveying with nothing extra to add on to it, vibhakti hi na praptosyeva. There is no occasion of doing the vibhakti itself. Vibhakti itself cannot be done. Sarthanam aprayogaha iti nyayaha asti. Yaha pratiparikayanaiva purnaha arthaha yadi uttaha, tarhi vibhakti hi kimartham iti prasthaho deti. Ataha vibhakti reva na syat. Yada सङ्ख्या अपि प्रातिपदिकार्थः भवति तदा विभक्तेः उत्पत्तौ किमपि प्रमाणं नास्ति. निमित्ते प्रातिपदिकार्थमात्रे प्रथम. यद्यपि प्रातिपदिकार्थः एव विभक्त्या उच्यते इति उच्यते तथापि तत्र सङ्ख्यायाः भानम् अधिकेन अस्ति. इदं दो The vibhakti as a whole indicates only pratikarikartha. There is also the addition of sankhya which is done by the specific vibhakti. Yada sankhyavachakam eva padam bhavati, tada sankhyaapi pratikarikartha eva ityukte vibhakteh kim karyam. उक्तार्थत्वात् विभक्तेः अप्राप्तिः पूर्वमेव सः अर्थः प्रातिपदिकेनैव उक्तः इत्यतः विभक्तिरेव न भवति. यदि विभक्त्युत्पत्तिः न भवति तर्हि पदत्वं नास्ति. पूर्वं दृष्टं किल सुप्तिनन्तं पदं सुबं तत्वे तस्यैव पदत्वं भवति. पदत्वमेव नास्ति चेत् प्रयोगं नार्थति. अतः विभक्तेः अप्राप्तौ विभक्तिरेव न स्यात् सङ्ख्यावाचकेभ्यः एकं द्वे बहु इत्येतेभ्यः विभक्तिरेव न भवति. अतः विभक्तिः भवेत् पदत्वसाधनार्थं वा विभक्तिः भवेत् इत्येतदर्थं वचनमात्रे प्रथमा इति उच्यते. तत्र केवलं सङ्ख्यायाः भावनमस्ति, अन्यत् किमपि नास्ति. प्रातिपदिकार्थः एव अपि सङ्ख्या एव. अतः वचनमात्रे प्रथमा इत्येतत्तु सङ्ख्यावाचकानां कृते भवति. एव एकौ एकाः इति न भवति. एक इति पदं यदा सङ्ख्यावाचकं भवति, वेन् द वर्ड् एक इण्डिकेट् वन् एकैकवचनं, तत्र अन्यानि वचनानि न भवन्ति, केवलम् एकत्वमेव भासते. एकः पुरुषः इत्यत्र विशेषणं सत्यम्. एक इति विशेषणम् इदन्ड् इट् इस् इण्डिकेटिङ्ग् एक, दट् इस् ओन्लि वन्. एतत् वचनमात्रे प्रथम इत्यस्य उदाहरणम्. प्रातिपदिकार्थ लिङ्ग परिमाण वचनमात्रे प्रथम. प्रातिपदिकार्थः लिङ्गाधिक्यं परिमाणाधिक्यं तथा वचनमात्रं सर्वे पदार्थाः ज्ञाताः. आल् पार्टिकल्स् इन् द सूत्रा एषु अर्थेषु अस्माभक्तिः भवति. अलिङ्गेभ्यः नियतलिङ्गेभ्यः प्रातिपदिकार्थमात्रे प्रथम. अनियतलिङ्गेभ्यः लिङ्गाधिक्ये प्रथम. परिमाणवाचकेभ्यः परिमाणाधिक्ये प्रथम. सङ्ख्यावाचकेभ्यः सङ्ख्यामात्रे प्रथम अथवा वचनमात्रे प्रथम इति निर्णयः. सो बेस्ड् आन् वाट् टैप् आफ् वर्ड् वि आर् यूसिङ्ग् विल् डिसैड् वाट् इस् द मीनिङ्ग् आफ् प्रथम. बट् एस् अ मेजारिटि जनरली सिन्स् प्रातिपदिकार्थ इस् प्रेसेण्ट् इन् मोस्ट् आफ् द केसेस् प्रातिपदिकार्थे प्रथम. So what is the sense of pratikarika? Prathama vibhakti, we always say it is pratikarika. Bahavasanti ityatra bahavaha iti vachanamatrasya udaharanam. Satyam. Tatra bahavaha iti vachanamatre prathama. Kevalam bahutvam dyotayati. Anyat kimapi na dyotayati tatra. Madhre, anyat ekam nimittam asti prathama vibhakti hai. Jinnam cha sutram. सम्बोधने च इति सूत्रम्. प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रात् प्रथमा इति अनुवर्तते इति अनुवृत्ति सूत्रवेदिनी प्रथमा. सम्बोधने अपि प्रथमा विभक्तिः भवति. इह प्रथमा स्यात् इति सूत्रार्थः इह नाम सम्बोधनविषये प्रथमा विभक्तिः भवति इति सूत्रार्थः. किं नाम सम्बोधनम् इति चेत् सम्बोधनम् अभिमुखीकृत्य ज्ञापनम्. अन्यत्र यस्य लक्ष्यमस्ति तादृशस्य पुरुषस्य इत्युक्ते व्यक्तेः वा अभिमुखीकृत्य ज्ञापनम् किमपि वचनम्. सो ब्रिङ्गिङ्ग् अ पर्सन्स् अटेन्शन् टु युवर् सेल्फ् एण्ड् टेलिङ्ग् समथिङ्ग् इस् काल्ड् सम्बोधन. सेयिङ्ग् हे राम. He will not say just Rama. I mean, when you address something, he'll ask what. So, he will be Vakyam Bhave. Udaharanatham, Hey Rama, Maam Vahi, Ikyasti Purnam Vakyam. Hey Rama, it is Sambodhanam. Ramaha, Ramasya Raksham Kutrasit Syat. Rama might be looking elsewhere. So, Hey Rama is something which makes him turn towards you. Abhimukhi Karanam. Rama, to make a person turn towards you. Or pay attention. Hey Rama, Ramam Abhimukhi Kutra. Maam Vahi. Please protect me. इति विचारः तस्मै उच्यते. ज्ञापनं नाम कथनम् इत्येव अर्थः अत्र. सो आस्किङ्ग् फर् अ पर्सन्स् अटेन्शन् एण्ड् टेलिङ्ग् समथिङ्ग् वन्स् द पर्सन् इस् पेयिङ्ग् अटेन्शन् टु यु, दट् इस् काल्ड् सम्बोधन. सम्बोधने प्रथमानुभक्तिः भवति. संबोधने प्रथमा विभक्ति फॉर द कार्य रूपे व्यत्यय भवेत् प्रथमा विभक्ते है संबोधन प्रथमा विभक्ते है रूपे भेद अस्ति किमर्थम रूपे भेद इति चेत् संबोधने या प्रथमा विभक्ति तत्र एकवचनस्य विशिष्टा काचित् संज्ञा दीयते पाणिनिना सम्बुद्धिः इति सो पाणिनि हे स्पेसिफिक कार्य इत् प्रथम विभक्ति इज इन संबोधन तस्मात् रूपे क्वचित् व्यत्ययः अस्ति सर्वत्र व्यत्ययः अस्ति इति नास्ति उदाहरणार्थं मनः इत्यस्य चेत् मनः हे मनः इत्येव भवति एवं बहुत्र सुहृत् इत्यस्य चेत् हे सुहृत् सर्वत्र भेदः भवेत् इति नास्ति किन्तु बहुत्र भेदः दृश्यते प्रथमविभक्तो रामः सम्बोधन प्रथमविभक्तो हे राम तत्तु रूपे व्यत्ययः उभयं प्रथमविभक्तिरेव मोदस्यम् आर् टेक्निकलि प्रथमविभक्ति इफ् यू नोटिस् ओन्ली इन् एकवचन देर् विल् बि अ डिफरेन्स् इन् नो केस् इस् देर् अ डिफरेन्स् इन् बिट्वीन् प्रथम एण्ड् सम्बोधन प्रथम इन् द्विवचन और् बहुवचन द्विवचने वा बहुवचने वा कदापि प्रथमायाः सम्बोधन प्रथमायाश्च विशेषः न भवति सर्वत्र समानम् केवलम् एकवचने सम्बोधन प्रथमायाः एकवचने क्वचित् विशिष्टं कार्यम् उच्यते तेन रूपे व्यत्ययः दृश्यते तथापि इयं प्रथमा विभक्तिरेव तेन किं जातम् इदानीं पश्यामः एतेषु वाक्येषु प्रथमाविभक्तेः किं निमित्तम् पञ्चनिमित्तानि सन्ति प्रथमाविभक्तेः प्रातिपदिकार्थमात्रम् लिङ्गाधिक्यम् परिमाणाधिक्यम् वचनमात्रम् सम्बोधनम् किञ्चित् विचारयामः अत्र कस्मिन् अर्थे प्रथमाविभक्तिः बालः गच्छति इत्यस्ति कस्मिन् अर्थे प्रथमा क्वेश्चन् फोर् यू यू पीपल् केन् आन्सर् डिस्कस् आन्सर् प्रातिपदिकार्थे प्रातिपदिकार्थमात्रे प्रथमा इति उत्तरम् लिङ्गाधिक्यम् इत्यपि उत्तरम् एनि अदर् आन्सर् प्रातिपदिकार्थमात्रे प्रथमा वा लिङ्गाधिक्ये प्रथमा वा चिन्तयन्तु किञ्चित् चिन्तयन्तु ज्ञायते द्वयमपि न भवति इत्युक्ते लिङ्गाधिक्यम् इत्यनस्यैव सः अर्थः प्रातिपदिकार्थेन सह लिङ्गमपि भासते इत्यर्थः लिङ्गाधिक्यम् इत्येव द्वयमपि इत्यस्य अर्थः ओन्ली प्रातिपदिकार्थ आर् लिङ्गाधिक्य लिङ्गाधिक्यम् इत्यनेन प्रातिपदिकार्थमः अपि अस्ति लिङ्गमपि अस्ति चिन्तयन्तु तावती एकः प्रश्नः अस्ति सर्वदा हे इत्यस्य उपयोगः करणीयः वा सम्बोधने इति चेत् न करणीयः केवलं राम इत्युक्ते एव सम्बोधनं ज्ञायते केवलं सम्बोधनम् यूथे इति तस्मात् कम्पल्सरि केवलं राम इत्येव सम्बोधनम् उत्तरं किं प्रातिपदिकार्थे प्रथमा वा लिङ्गाधिक्ये प्रथमा वा How do you support your answer? There should be some reason to say, is it Lingadhikya or only Pratipadikartha? Kim, kaha visheshaha, katham jnayate Pratipadikartha matreva Lingadhikyeva? Yadi niyata linga shabdaha, tarhi Pratipadikartha matre prathama. Yadi aniyata lingaha, tarhi Lingadhikya prathama. Satyam kena. If that word exists in a single linga, it will be Pratipadikartha matre prathama. If it can exist in more than one linga, इट् विल् बि लिङ्गाधिक्ये प्रथम बाल इति पदम् तस्मिन् लिङ्गे बालः बाल एज अ प्रातिपदिक एकस्मिन् एव लिङ्गे भवति वा लिङ्गद्वये भवति वा इति प्रश्नः यथा सारदा भगिनी वदति बालः बाला उभयमपि अस्ति बाल इति प्रातिपदिकम् प्रातिनियतलिङ्गम् नास्ति इट् केन् बि ईदर् पुल्लिङ्ग आर् स्त्रीलिङ्ग यदा बालः इति उच्यते तदैव पुल्लिङ्गत्वं ज्ञायते यदा बाला इति उच्यते तदैव स्त्रीलिङ्ग अतः अयम् अनियतलिङ्ग शब्दः इत्यस्मात् नियतलिङ्ग यदि अनियतलिङ्गः तर्हि लिङ्गाधिक्ये प्रथमा बालः इत्यत्र लिङ्गाधिक्ये प्रथमा विभक्तिः राधा नृत्यति अत्र कथम् राधा इत्यस्मात् प्रथमा विभक्तेः विभक्तिः कस्मिन् अर्थे बालम् इति नास्ति नपुंसकलिङ्गे बालशब्दस्य प्रयोगः नास्ति बालशब्दस्तु पुल्लिङ्गे अस्ति स्त्रीलिङ्गे अस्ति अतः बालम् इति नास्ति किन्तु भवितुम् अर्हति नास्ति राधा इत्यत्र प्रातिपदिकार्थे नियतलिङ्गत्वात् राधा इस् आल्वेस् अ स्त्रीलिङ्ग इट्स् अ नेम् आफ् अ गर्ल् सर्वदा स्त्रीलिङ्गत्वात् प्रातिपदिकार्थमात्रे प्रथमा मया पाठः पठ्यते पाठः त्वया पाठः पठ्यते पाठशब्दात् प्रातिपदिकार्थे प्रथम सत्यं सर्वैः ज्ञातं पाठशब्दः नित्य पुल्लिङ्गः अतः तस्य प्रातिपदिकार्थमात्रे प्रथमा भक्तिः अत्र फलं सुवर्णं विद्यते फलं सुवर्णं पदद्वयमस्ति फलशब्दात् कथं प्रथमा सुवर्णशब्दात् प्रथमं कथं प्रथमा इति भिन्नतया विचारणीयं फल इस् अ measures of suvarna. It's one of the measures. If you go and check in the list, pala is a weight, a particular weight is called pala. Pala shabdat parimana adhikye prathama. Okay, as we saw, just like Drona Varihi, palam suvarna mitjikhe parimana adhikye prathama. Suvarna shabdat kasmin narkhe prathama. फलः सुवर्णम् इति भवेत् ऐ थिङ्क् फलशब्द इस् नपुंसकलिङ्ग ऐ डिन्ट् थिङ्क् आफ् इट् फलशब्दस्य सर्वदा नपुंसकलिङ्गे प्रयोगः इति मया चिन्त्यते ईदर् फलः सुवर्णम् आर् फलं सुवर्णम् ऐ एम् नाट् श्योर् ईदर् वे परिमाणाधिक्ये प्रथम सुवर्णशब्दात् प्रातिपदिकार्थमात्रे प्रथम सुवर्णशब्दः नित्य नपुंसकलिङ्गः तस्मात् प्रातिपदिकार्थः मात्रे प्रथम एकः स्थूलः गजः आसीत् त्रीणि पदानि सन्ति प्रथमाभक्तौ एकः स्थूलः गजः एकः इत्यत्र अचलमात्रे प्रथम स्थूलः स्थूलशब्दात् तस्मिन् अर्थे स्थूलशब्दः विशेषणम् इति सत्यम् किन्तु प्रथमा विभक्तिः तस्मिन्नर्थे प्रातिपदिकार्थे वा लिङ्गमात्र लिङ्गाधिक्ये वा You do not need to think of any other words while if you make this clear. Yada sthula shabdat kasmin arthe prathama iti uchyate tada saha gajasya visheshanam va anyasya visheshanam va iti na chintaniyam. You do not need to think whether it is a visheshana to gaja or a mahila or whatever. Just think of sthula shabda. We are not concerned with what it means. Only concerned with sthula shabda. Sthula shabdaha एकस्मिन् लिङ्गे वा बहुषु लिङ्गेषु भवितुमर्हति वा स्थूल शब्द सर्वेषु लिंगेषु भवितुम् अर्हति पुल्लिङ्गमपि स्त्रीलिङ्गमपि लघुसकलिङ्गम् अतः अत्र लिङ्गाधिक्ये प्रथमा इत्येव वाट् लिङ्ग विल् बि डिसैडेड् बेस्ड् आन् वाट् इट् इस् एन् अब्जेक्टिव् टु किन्तु प्रथमा विभक्तिस्तु लिङ्गाधिक्ये इट् विल् इण्डिकेट् वाट् एवर् लिङ्ग इट् नीड्स् टु इण्डिकेट् इन् अडिशन् गजशब्दात् कथं प्रथमा लिङ्गाधिक्ये गजः गज उभयोः लिङ्गयोः भवति गजशब्दः श्रीगजः गजा गजा वा गज इति भवति अतः सर्वाणि विशेषणानि लिङ्गाधिक्ये अर्थात् यानि अनियतलिङ्गानि विशेषणानि निरर्थं विशेषणात् विच् हाव् अ पर्टिक्युलर् लिङ्ग सो अनियतलिङ्गानि जनरल् विशेषणात् विच् एक्सिस्ट् इन् आल् त्री लिङ्ग फोर् देम् सर्वदा लिङ्गाधिक्ये प्रथम गजशब्दस्य लिङ्गाधिक्ये प्रथम यतोहि गजशब्दस्य स्त्रीलिङ्गे अपि प्रयोगः अस्ति रामः महावीरः रामः इत्यस्मात् प्रातिपदिकार्थे प्रथम यतोहि राम इति यदा नाम भवति संज्ञाशब्दः तदा नित्यपुल्लिङ्गः अतः प्रातिपदिकार्थमात्रे प्रथम महावीरः वीरः इति विशेषणं वीरा इत्यपि भवितुमर्हति यद्यपि प्रयोगः नास्ति स्त्रीलिङ्गे तथा किन्तु तत्तु भवितुम् अर्हति अतः लिङ्गाधिक्ये प्रथम अस्ति वीरशब्दस्य स्त्रीलिङ्गरूपम् अस्ति वीरा इति भवति अतः लिङ्गाधिक्ये प्रथम राजन् चिरं जीव जीवशब्दः निश्चयकन्यभक्ति राजन् अण्ड् किरम् राजन् इत्यत्र सम्बोधने प्रथम पश्यतु अत्र हे इति नास्ति नावश्यकं हे इति राजन् इत्येव सम्बोधनम् किरम् इत्यस्मात् कथं प्रथम व्ययम् अलिङ्गम् अतः प्रातिपदिकार्थमात्रे प्रथम अलिङ्गानां प्रातिपदिकार्थमात्रे प्रथम अन्तिमम् उदाहरणम् अयं मानवकः सिंहः मानवकः नाम बालः इत्यर्थः अयं मानवकः सिंहः त्रीण्यपि पदानि प्रथमाविभक्तौ सन्ति अयम् अयम् इत्यस्मात् तस्मिन् अर्थे प्रथम लिङ्गाधिक्ये प्रथमार्थम् इदं शब्दः त्रिष्वपि लिङ्गेषु अस्ति अयम् इयम् इदम् इति लिङ्गत्रये अस्ति अतः लिङ्गाधिक्ये प्रथम माणवकः कुत्रापि बालः बाला इतिवत् लिङ्गद्वयं भवितुम् अर्हति लिङ्गाधिक्ये प्रथम माणवकः सत्यं भवति माणविका इति एवं सिंहः सिंहः सिंही उभयमस्ति अतः लिङ्गाधिक्ये स्त्रीण्यपि पदानि लिङ्गाधिक्ये प्रथमा इति अस्ति माणविका इति रूपं भवेत् इति चिन्तयामि ऐ एम् आल्सो नाट् श्योर् वाट् इस् वेदर् द स्त्रीलिङ्ग् आफ् माणवका इस् माणवका आर् माणविका But I know there is a Sreelinga form, so I will look at it and tell. So, Srijjaha Avipadevjaha Lingadhikya Prathama. Hindu, Ayam Vanavakaha Simhaha Itchitra Kastana Prashnaha Asti. Katham Prathama Iti. Padasya Arthadvayam Asti. Sakyarthaha Lakshyarthaha. Asti. Nafi Prashnaha Prashtahayam. पदेन साक्षात् यः अर्थः प्रतीयते सः शक्यार्थः द डिरेक्ट् मीनिङ्ग् आफ् अ वर्ड् इस् काल्ड् शक्यार्थ साक्षाद् यः अर्थः सः शक्यार्थः तादृशस्य पदस्य शक्यार्थबोधकस्य पदस्य शक्तम पदम इयम् वृत्तिः नाम पदपदार्थयोः सम्बन्धः शक्त पदस्य शक्त्यार्थस्य च यः सम्बन्धः सः शक्तिः इत्युच्यते. टेक्निकल् टर्म् नार्मलि यूस्ड्. उदाहरणार्थं सिंहः इत्यस्ति, तस्य शक्त्यार्थः कः? कटा केसर नखलाङ्गूल सहितः. सम् अनिमल् चतुष्पात् प्राणी. दिस् इस् नाट् अ वेरि प्रिसैस् डेफिनेशन्, दिस् इस् मै ओन् समथिङ्ग् विच् ऐ हव् मेड् अप्. Might not be very precise, I'm just trying to give you an idea. Simha iti shabdasya kaha artha? A four-legged animal which has that mane of lion, it has say, claws, it has tail and all that. There is some feature, simha shabdasya shakya artha kaha. Kintu kadachit vakye prayoge shakya artha eva mukhya artha ityati uchyate. That is the original meaning of the word. Kintu kim bhavati? कदाचित् वाक्ये प्रयोगे मुख्यार्थः अन्वयम् न प्राप्नोति. यू केनाट् रिलेट् टु दट् मुख्यार्थ. उदाहरणार्थम् इदमेव अस्ति, अयं मानवकः सिंहः इत्युच्यते. अत्र सिंहपदस्य कोऽर्थः? सः बालः कटाकेसर नखलाङ्गूलसहितः चतुष्पादित्यर्थः वा? डु यू मीन् टु से दट् बाय् हेज् मेन् आर् हेज् अ टेल् आर् हेज् फोर् लेग्स्? सः अर्थः वा? सिंहशब्दस्य यः मुख्यार्थः अस्ति स एव अर्थः भासते वा न भासते? नोबडि विल् से अयं बालः सिंहः इत्युक्ते नोबडि विल् इमेजिन् दट् बाय् टु बि लैक् सिंह, रैट्? अट्लीस्ट् इन् द फिसिकल् फार्म्. सत्यं, तद्वैः ज्ञायते कः अर्थः. सिंहसादृश्यं वीर्यम् अस्ति इत्येव अर्थः भासते किल. सो द मुख्यार्थ आफ् सिंह, वाट् इस् द शक्यार्थ आफ् सिंह, that will not relate in the vakya. Even though everybody knows, if you just say simhaha, everybody will define what is a simha. Kintu vakya yada prayogaha asti tada saha arthaha anvayam na praptoti. The mukhyartha, the shakyartha of the word will not relate. Evam mukhyartha badhe sati, when there is some objection to the mukhyartha. Here common sense itself tells that it is not the shakyartha which is being intended. Tada kim bhavati? Shakyartha bhinnaha tat sambandhaha kachana arthaha tasmat pada pratiyate. So there is some other meaning which we are getting out of simha. This is not the animal. Shakyarthaha yaha asti, sahartha nasti. Kintu tat sambandhaha. We relate simha with shaurya, and that is why we are getting the meaning of shaurya out of the simha. Simha iti padadeva सिंहसादृशः वीर्यवान् इत्यर्थः अस्माभिः ज्ञायते. सः न शक्यार्थः. इट् इस् नाट् द प्रिन्सिपल् मीनिङ्ग् आफ् द वर्ड्, बट् इट् इस् समथिङ्ग् रिलेटेड् टु इट् विच् वि आर् इण्टर्प्रिटिङ्ग् इट् बिकास् द मेन् मीनिङ्ग् आर् द प्रिन्सिपल् मीनिङ्ग् डस् नाट् फिट् इन् टु द सेण्टेन्स्. तदेव अयं मानवः सिंहः इत्युक्ते सिंहपदेन किं ज्ञायते? सिंहसादृश्यम् अर्थात् वीर्य साहसादि गुणयुक्तत्वं प्रतीयते. सत्यं किल? अयमेव लक्ष्यार्थः इत्युच्यते. दिस् कैण्ड् आफ् मीनिङ्ग् इस् काल्ड् लक्ष्यार्थ. द प्रिन्सिपल् आर् द ओरिजिनल् मीनिङ्ग् आफ् द वर्ड् इस् काल्ड् शक्यार्थ. दट् पद इस् काल्ड् शक्त एण्ड् द वृत्ति इस् काल्ड् शक्ति. दिस् मीनिङ्ग् विच् इस् ओरिजिनेट्, विच् इस् रिलेटेड् टु द ओरिजिनल् मीनिङ्ग्, विच् ओरिजिनेट् बिकास् द ओरिजिनल् मीनिङ्ग् डस् नाट् फिट्. अन्वयवाधः अथवा तात्पर्यवाधे सति अयम् अर्थः प्रतीयते. अयमेव लक्ष्यार्थः इति उच्यते. इदं पदं लक्ष्यम्, अयं इयं वृत्तिश्च लक्षणा इति उच्यते. सो दट् इस् द डिफरेन्स् बिट्वीन् शक्यार्थ एण्ड् लक्ष्यार्थ इति क्वश्चन्. इदानीम् अस्माकं कः प्रश्नः? सिंहः इत्यस्य अयं मानवः सिंहः केवलं प्रातिपदिकार्थः न भासते किल? अथवा जस्ट् प्रातिपदिकार्थ एण्ड् लिङ्ग इस् नाट् वाट् वी आर् गेटिङ्ग् औट् आफ् सिंह, रैट्? तत् सादृश्यं, सिंहसादृश्यम् इत्यपि अनेन पदेन ज्ञायते. कथं प्रथमाविभक्तिः? सेड् प्रातिपदिकार्थमात्रे अथवा लिङ्गमात्राधिक्ये. ओन्ली इवन् द पद इण्डिकेट् प्रातिपदिकार्थ प्लस् लिङ्ग एण्ड् नथिङ्ग् एल्स् वि केन् हाव् प्रथमाविभक्ति. अत्र तु सिंहसादृश्यम् इति सादृश्यार्थः अधिकतया भासते. कथं प्रथमाविभक्तिः इति प्रश्नः. द क्वश्चन् क्लियर्? हौ डु वि हाव् प्रथमाविभक्ति वेन् देर् इस् समथिङ्ग् अदर् देन् प्रातिपदिकार्थ एण्ड् लिङ्ग विच् इस् बीङ्ग् इण्डिकेटेड्? प्रातिपदिकार्थः अस्ति, लिङ्गमस्ति, किन्तु तदाधिक्येन सादृश्यम् अस्ति, कथम् अत्र प्रथमा विभक्ति इति प्रश्नः। किम् उत्तरम्? सिंहः when we have just the word, so this is where we make a distinction between the word and the sentence. यदा केवलं पदम् अस्ति, सिंहः इति पदं यदा कथं भवति, सिंह इत्यस्मात् प्रातिपदिकात् प्रथमा विभक्तिः विधीयते। तस्मिन् समये यदा सिंह इति प्रातिपदिकात् विभक्तिः विधीयते तदा लक्ष्यार्थस्य भानं नास्ति। When we are just taking सिंह as a प्रातिपदिका and adding विभक्ति, we do not get the लक्ष्यार्थ। When is the लक्ष्यार्थ becoming obvious? पदे सिद्धे, the word सिंह is ready, तस्य पदस्य अन्येन पदेन योगे। When you are relating that सिंह to मानवक, then only you get लक्ष्यार्थ। If you just say I am सिंह, you will say this is a lion, this is the actual शक्यार्थ, right? तो केवलस्य पदस्य शक्यार्थः एव भवति। यदा अन्येन पदेन वाक्ये अन्यैः पदैः सह सम्बन्धः भवति तदैव मुख्यार्थस्य बाधः। Then only you realize that okay, this is not the मुख्यार्थ, will not fit here. Then you bring in the additional meaning of sadrishya. The lakshyartha will become obvious only when there is mukhyartha madha, which is only in the sentence. When you are at the stage of construction of the word, simha iti pratipadika yada prathama vibhaktihi kriyate, tada shakyartham adaye eva kriyate. You assume it is a shakyartha, pratipadikarthe eva prathama kriyate. Ha lingadhikye prathama kriyate. लक्ष्यार्थ प्रतीति तो तस्याम दशायाम नास्ति। At that stage you cannot make out लक्ष्यार्थ। Whether this simha is an original simha or being indicated, used to indicate a similarity between a simha, you will not know at the stage of creating the word. अतः प्रथमा विभक्ति विधानम तो लिंगाधिकेय एव भवति। लक्ष्यार्थ प्रतीतिः वाक्य प्रयोग दशायां भवति। सो देयर इज नो ऑब्जेक्शन टू डूइंग प्रथमा विभक्ति इन लिंगाधिक्य। प्रथमा विभक्ति ही लिंगाधिक्य इत्येव उच्यते। लक्ष्यार्थ प्रतीतिस्तु वाक्य बोध दशायां। ओके, हां, समापयामि। इट इज एक्चुअली लेट बट आई एम सॉरी बिकॉज़ ऑफ द करंट। सो सिमिलरली देयर आर अदर केसेस वेयर रामः महावीरः व्हेन यू आर यूजिंग विशेषण विशेष्य एटसेट्रा तत्रापि अभेदान्वयः इति अस्ति। समथिंग विच सेज अभेद सम एडिशनल मीनिंग माइट बी ऑब्वियस फ्रॉम द सेंटेंस किंतु सर्वदा वाक्यदशायाम् एव भवति। ऑल दोस एडिशनल मीनिंग कैन बी नोन ओनली एट द स्टेज ऑफ ए वाक्य, नॉट व्हेन वी आर क्रिएटिंग कंस्ट्रक्टिंग द पद। यदा प्रथमा विभक्तिः क्रियते तदा तस्य प्रतीतिः न भवति। अतः सर्वत्र प्रातिपदिकार्थे प्रथम अथवा लिंगाधिक्ये परिमाणाधिक्ये एक्सेट्रा, व्हाटएवर एडिशनल मीनिंग विल नॉट कम इनटू पिक्चर व्हेन वी आर डूइंग विभक्ति। ओके, सो प्रथमा विभक्तेः निमित्तं पञ्चधा एव भवति। प्रातिपदिकार्थः लिंगाधिक्यं परिमाणाधिक्यं वचनाधिक्यं संबोधनम्। अत्र समापयामः। कोऽपि प्रश्नः अस्ति चेत् अवश्यं पृच्छताम्। इन् द नेक्स्ट् क्लास् वि गो थ्रू दिस् अगेन्। बहवः कदाचित् प्रष्टुं शक्यते। इदानीम् अत्र समापयामः। येनाक्षरसमां नाम ब्रह्ममहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुत्तरीभाव्य यज्ञाकरण सिद्धांत कौमुदी विरच्यते। श्वः सार्धषड्वादने शिक्षा भविष्यति। श्वः सार्धषड्वादने। धन्यवादाः।